आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः केरल तमिलनाडु राज्ययोः यात्रां विधास्यति। केरलराज्ये सः अपराह्णे सार्धद्विवादने एर्नाकुलम नगरे प्रायः अष्टशतोत्तर दशसहस्रकोटिरूप्यकाणां बहुविध विकासात्मक परियोजनानां उद्घाटनं राष्ट्राय समर्पणं शिलान्यासं ध्वजारोहणं च विधास्यति। कार्यक्रमावधौ श्रीमोदी जनसमूहम् अपि सम्बोधयिष्यति। तत्पश्चात् तमिलनाडुराज्ये प्रधानमन्त्री तिरुचिरापल्ल्यां प्रायः पञ्चसहस्रकोटिरूप्यकाणां बहुविध विकासात्मक परियोजनानाम् उद्घाटनं राष्ट्राय समर्पणं शिलान्यासं च विधास्यति। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रिय स्वतन्त्र दलस्य अध्यक्षं रवि लमिच्छाने इत्येनं आरएसपी इत्यस्य वरिष्ठं नेतारं बालेन्द्र शाह इत्येनं च निर्वाचने विजयाय नेपाल निर्वाचने आरएसपी इत्यस्य सफलतायै च अभिनन्दितवान्। तेन सह दूरभाषया वार्तालापं कुर्वन् श्रीमोदी तेषाम् आगामि नूतन प्रशासनस्य कृते शुभाशयाः प्रेषितवान्। अपि च उभयदेशयोः परस्पर समृद्धेः प्रगतेः कल्याणस्य च कृते तेन सह कार्यं कर्तुं भारतस्य प्रतिबद्धतां च सूचितवान्। संयुक्त प्रयासेन आगामिषु वर्षेषु भारत नेपालयोः सम्बन्धः नूतनम् औन्नत्यं प्राप्स्यति इति प्रधानमन्त्री दृढविश्वासं प्रकटितवान्। विदेशमन्त्री डॉ एस जयशंकरः सबलं प्रत्यपादयत् यत् पश्चिमेशिया क्षेत्रे आपीडं न्यूनीकर्तुं मन्त्रणा कूटनीतिश्च समवलम्बनीया। पश्चिमेशिया क्षेत्रस्य स्थिति विषये अवर सदने प्रदत्ते स्वीये वक्तव्ये डॉ एस जयशंकरः प्रावोचत् यत् भारत सर्वकारेण गतमासस्य विंशे दिनांके तत्रत्य स्थिति विषये एकं वक्तव्यं प्रकाशितं यस्मिन् गभीर चिन्ता व्यक्तीकृता। साकमेव तत्र आपीड प्रसंगे सम्बद्धाः सर्वे अपि पक्षाः संयमं संधारयितुं अध्यर्थिताः सन्ति। तेनोक्तं यत् भारतस्य मतमस्ति यत् आपीडस्य न्यूनीकरणार्थं मिथो मन्त्रणायाः कूटनीतेश्च च आश्रयः आश्रणीयः।
India is in favor of peace and urges a return to dialogue and diplomacy. We advocate de-escalation, restraint, and ensuring the safety of civilians. Two, the well-being and security of the Indian community in the region is our priority. We will continue to work with the governments of the region towards that end. And three, our national interest, including energy security and trade flows, will always be paramount. I'm confident, sir, that the government has the full support of this august house on this matter.
विदेशमन्त्री न्यगादीत् यत् एषः प्रवर्तमानः संघर्षः भारताय अपि विशेषचिन्तायाः विषयो वर्तते यतोहि भारतमपि समीपस्थक्षेत्रे स्थितमस्ति। असौ उदेरयत् यत् विदेशमन्त्रालयेन स्थितेः परीक्षणार्थं प्रश्नानाम् उत्तरार्थं च विशेषः नियन्त्रणकक्षः स्थाप्यते। तेन एतदपि प्रोक्तं यत् ह्यस्तन पर्यन्तं प्रायः सप्तषष्टि सहस्र परिमिताः भारतीय नागरिकाः देशे प्रत्यागताः सन्ति। अमुना व्यक्तम् इदं विपक्षस्य तुमुल कोलाहल मध्ये प्रदत्तम्। ध्येयमस्ति यत् इमे विपक्षजनाः एतस्मिन् प्रकरणे चर्चायाः याचनां कुर्वन्तः अवर्तन्त। डॉ जयशंकरः राज्यसभायामपि एतदेव वक्तव्यं दत्तवान्। सर्वकारेण अद्यावधि प्रधानमन्त्री उज्ज्वला योजनान्तर्गतं निर्धन परिवाराणां महिलानां कृते सार्धदशकोट्यधिक एलपीजी इति वात्यन्धन सम्पर्कं प्रदत्तमस्ति। योजनेयं षड्शतोत्तर द्विशततम वर्षस्य मई मासे आरब्धा, यस्योद्देश्यं सम्पूर्णे देशे महिलाभ्यः निक्षेपमूल्यरहितं एलपीजी इति वात्यन्धन सम्पर्कं प्रदानाय आसीत् इति वार्ताः।